एसा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधिसभायां विनियोजन विधेयकस्य विभिन्नेषु शीर्षकेषु सांसदानां सम्भाषणक्रमः ह्यः समाप्तः। विनियोजन विधेयकस्य विभिन्नानि शीर्षकाणि आश्रित्य विहिते विमर्शने सांसदैः उत्थापितानां प्रश्नानाम् अद्य सम्बद्ध मन्त्रिभिः उत्तरप्रदानस्य कार्यक्रमो वर्तते। गतदिवसीयोपवेशे ऊर्जो जलस्रोत सिंचन शिक्षा विज्ञान प्रविधि संघीय विषय सामान्य प्रशासन परराष्ट्र गृह रक्षा मन्त्रालयानां प्रधानमन्त्री मन्त्री परिषदः कार्यालयस्य राष्ट्रिय योजनायोगस्य सचिवालयस्य राष्ट्रपतेः कार्यालयस्य उपराष्ट्रपतेः कार्यालयस्य च विभिन्नानि शीर्षकाणि विमृष्टानि। एतेषां मन्त्रालयानां विभिन्नेषु शीर्षकेषु दश सांसदाः एकलरूपेण संयुक्तरूपेण च व्यय न्यूनीकरणस्य प्रस्तावम् प्रास्तुवन्। सांसदः आयव्ययकस्य माध्यमेन सर्वकारेण उचित कार्यक्रमेषु आनीतेषु सत्स्वपि आयव्ययकस्य क्रियान्वयनं समाह्वयपूर्णमस्तीति तर्कयन्तः प्रभावकारि क्रियान्वयनाय बलं प्रादुः। सांसदैः सर्वकारेण कोरोना संक्रमणस्य नियन्त्रणाय प्रभावकारि कार्यक्रमाः अग्रेसारिताः सन्तोऽपि स्वास्थ्यकर्मिणां स्वास्थ्य सामग्रीणां साधन स्रोतसां च बहुषु जनपदेषु न्यूनता स्थिति भासमाणैः एतेषां तत्कालं व्यवस्थापनं विधातुं बलं दत्तम्। सांसदाः कोरोना विषाणोः संक्रमणस्य मूल्यांकनं विधायैव शैक्षिक संस्थाः सञ्चालयितुं विश्वविद्यालयेषु पर्याप्तं वित्तं विनियोजयितुं संक्रमण समाप्तेः अनन्तरं विश्वविद्यालयेषु कार्यरतानां आंशिक शिक्षकाणां व्यवस्थापनं विधातुं च बलं प्रायच्छन्। सांसदाः आराष्ट्रं विद्यमानाः सुरक्षणावासाः कोरोना वर्धकानि श्रोतांशीव जायमानः सन्तीति ब्रुवाणाः एतेषां प्रभावकारि व्यवस्थापनाय बलम् अदुः। तत्पूर्वं प्रतिनिधिसभायाः गतदिवसीयोपवेशे सभामुख अग्निप्रसाद सापकोटः देशाय एव अनुकूल सन्देश प्रदानस्य विषये संसदि परस्परम् आरोप प्रत्यारोपे विना संयमं धर्तुं सांसदान् अन्वरुणात् असौ संकटपूर्णायाम् अवस्थायाम् उपवेशः सञ्चाल्यमानो वर्तते एवं संविधान संशोधन प्रवृत्ति विषयाणां माध्यमेन अनुकूल सन्देश प्रधानात्मिकां दिशं प्रति देशस्य अग्रेसरणस्य अवस्थायां सीमायाः विषये परस्परम् आरोप प्रत्यारोपणे अभिधाय संयमपूर्वकं निष्कर्ष प्राप्तेः कार्ये सहयोगं विधातुं सांसदान् अन्वरुणात्। असौ उपवेशे उत्थापितानां विवादित विषयाणां उचितम् अनुसन्धानं विधास्यते इत्यबोधयत्। उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः उपप्रधान रक्षामन्त्री ईश्वर पोखरेलः राष्ट्रिय सुरक्षा परिषद गतार्थिक वर्षस्य वार्षिक प्रतिवेदनं प्रस्तौत्। राष्ट्रिय सभाया ह्यस्तनोपवेशेन विरुद्ध संरक्षण प्रथम संशोधन विधेयकं पारितीकृतं वर्तते। कृषि पशुपक्षी विकास मन्त्रिणा घनश्याम भूषालेन प्रस्तुतं विधेयकम् एतद् उपवेशेन सर्वसम्मत्या पारितीकृतमस्ति। उपवेशेन उद्योग वाणिज्यापूर्ति मन्त्रिणा लेखराज भट्टेन प्रस्तुतं गत विक्रमाब्दीयं प्रत्ययन विधेयकं सर्वसम्मत्या स्वीकृतं वर्तते। उपवेशेन प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः कृषि पशुपक्षी विकास मन्त्रिणा घनश्याम भूषालेन प्रस्तुतं गत विक्रमाब्दीयं तथ्याङ्क विधेयकं सूत्रगत विमर्शनाय विधान व्यवस्थापन समितौ प्रेषितमस्ति। राष्ट्रिय सभायाः अपरोपवेशः श्वः पूर्वाह्नस्य एकादश वादने वस्ता। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेश अद्य वसति। ललितपुरवर्तिनः दल केन्द्रीय कार्यालयस्य बीपी स्मृति भवने अद्य द्विवादने उपविश्यमाने उपवेशे कोरोना विषाणोः महामारी प्रवृत्तिषु विषयेषु विमृश्यते इति दल कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत्। अर्थमन्त्री डाक्टर युवराज खतिवडा भासते आगामी दिनेषु कोरोना महामार्या योधनेन सहैव दैनिकार्थिक क्रियाकलापाः अग्रे वर्धापनीयाः। नेपाल न्यासपत्र समितेः अष्टाविंशस्य वार्षिकोत्सवस्य अवसरे श्रव्य दृश्य प्रविधेर माध्यमेन ह्य सम्बोधयन् अर्थमन्त्री डाक्टर खतिवडा कोरोना संक्रमणस्य कारणेन वित्तापणे अवरुद्धे सति वित्तापणे निवेशनकर्तृभ्यो व्यवसायिभ्यश्च काठिन्यं सम्भूतमस्तीति भासमाणः अतपरं कोरोना प्रभावं पराजित्य अर्थतन्त्रं पूर्वावस्थायमेव आनेतव्यम् इत्यवोचत्। गतदिने अतिरिक्तेषु त्रयोदशाधिक शतद्वय जनेषु कोरोना संक्रमणस्य पुष्ट्या सहैव नेपाले समग्रतः कोरोना संक्रान्तानां जनानां संख्या सहस्रत्रयम् अष्टचत्वारिंशदधिक शतचतुष्टयञ्च प्राप्ता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता डाक्टर विकास देवकोटा विभिन्नासु प्रयोगशालासु विहिते परीक्षणे गतदिने नवाधिक शतद्वय पुरूषेषु चतस्रिषु महिलासु संक्रमणं पुष्टिभूतं वर्तते इत्यज्ञापयत्। प्रवक्तुः डाक्टर देवकोटा विधस्य अनुसारेण नेपाले अद्यावधि एकसप्ततेः जनपदानां सहस्रत्रये द्वादशाधिक शतद्वय च पुरूषेषु षट्त्रिंशदधिक शतद्वये महिलासु च कोरोना संक्रमणं पुष्टिभूतमस्ति। एवमेव गतदिने अतिरिक्तानां द्व्यधिक शतजनानां स्वास्थ्यलाभं प्राप्य गृहप्रत्यावर्तनेन सहैव अद्यावधि नेपाले कोरोना संक्रमणात् प्राप्त स्वास्थ्यलाभानां जनानां संख्या सप्तषष्ट्यधिक शतचतुष्टयम् प्राप्तास्ति। प्राप्त स्वास्थ्य लाभेषु नवनवत्यधिक शतत्रयम् पुरूषाः अष्टाषष्टिः महिलाश्च सन्ति। कोरोना संक्रमणस्य कारणेन शनिश्चर वासरस्य सायं यावत् विदेशे सप्तविंशत्यधिक शतम् नेपालिनो मृताः सन्ति। विदेशे नेपालीनां मृत्योः संक्रमणस्य प्रतिशतम् उल्लेख्य मात्रायाम् न्यूनीभूतमस्ति। संक्रमणम् गतसप्ताहात् प्रतिशतम् पञ्चसप्तत्या न्यूनीभूतमिति आभासीयतर नेपाली संघेन ज्ञापितं वर्तते। बर्दिया जनपदस्य बडैया ताल ग्रामपालिकाया सप्तमवडा क्षेत्रवर्तिनो वकोतिया स्थानस्य पञ्चविंशति वर्षीय स्वास्थ्यकर्मिणी कोरोना विषाणो संक्रमणस्य दर्शनमनु ग्रामसौ पूर्णरूपेण पिधापितो वर्तते। संक्रान्तो जनः बाँसगढ़ी नगरपालिकाया सप्तमवडा क्षेत्र स्थिते देउडा कला स्थाने विद्यमानस्य स्वास्थ्य केन्द्रस्य परीक्षण सहायको वर्तते। इति समाचारः।